उद्बोधनमुषा देव्याः शृण्विदं पश्य वासरम् जीवोऽयं जीवये वास्य जीवस्य संशयं यतः ह्रस्वजीवितमार्गेऽस्मिन् अस्य तिष्ठत्य चञ्चलम् अस्तित्वस्य समस्तम् ते सत्यं याथार्थ्यमेव च वृद्धेरनुग्रहो दिव्यः सुमहत्त्वं च कर्मणः सौन्दर्यस्योज्ज्वलत्वं च सर्वमस्त्यत्र शाश्वतम् यतो हि स्वप्नमात्रं ह्यः श्वोऽपि हाचित्तकल्पितम् सुजीवितं चेत् किं त्वद्य सुष्ठु कृत्स्नं करोति तत् ह्यः सर्वं तुष्टिदं स्वप्नं श्वोऽप्याशा निर्भरं सदा तदिदं वासरं पश्य सैवोषस्तुतिराधृता इति उषावन्दनं सम्पूर्णम्।